ॐ श्री परमात्मने नमः श्रीमद्भगवद्गीता अथ नवमोऽध्यायः श्रीभगवानुवाच इदन्तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानविज्ञानसहितै यज्ञात्वा मोक्ष्यसे शुभात् राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् प्रत्यक्षावगमन् धर्म्यं सुसुखं कर्तुमव्ययम् अश्रद्धधानाः पुरुषा धर्मस्यास्य परन्तप अप्राप्य मान्निवर्तन्ते मृत्युसंसारवर्त्मनि मया ततमिदं सर्वै जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहन्तेष्वस्थितः न च मत्स्थानि भूतानि पश्य मे योगमीश्वरम् भूतभृन्न च भूतस्थो ममात्मा भूतभावनः यथाकाशस्थितो नित्यवायुः सर्वत्र गोमहान् तथा सर्वाणि भूतानि मत्स्थानि उपधारय सर्वभूतानि कौन्तेय प्रकृते यान्ति मामिकाम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् न च मान्तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवदासीनमसक्तन्तेषु कर्मसु मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् हेतुनानेन कौन्तेय जगद्विपरिवर्तते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् परं भावमजानन्तो मम भूतमहेश्वरम् मोघाशा मोघकर्माणो मोघज्ञाना चेतसः राक्षसीमासुरी चैव प्रकृतिं मोहिनीं श्रिताः महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् सततं कीर्तयन्तो मायतन्तश्च दृढव्रताः नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् अहं क्रतुरहैयज्ञस्वधाहमहमौषधम् मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् पिताहमस्य जगतो माता धाता पितामहः वेद्यं पवित्रमोङ्कार रुक्सामयजुरेव च गतिर्भर्ता प्रभुस्ताक्षी निवासशरणं सुहृत् प्रभवः प्रलयस्थानं निधानं बीजमव्ययम् तपाम्यहमहवर्षं निगृह्णां युत्सृजामि च अमृतै चैव मृत्युश्च सदसच्चाहमर्जुन त्रैविद्या मां सोमपाःपूत पापायज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनुप्रपन्नागतागतं कामकामा लभन्ते अनन्याश्चिन्तयन्तो माये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेम वहाम्यहम् येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् पत्रं पुष्पं फलन्तो यो मे भक्त्या प्रयच्छति तदहं भक्त्युपरुतमश्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। సన్యాసయోగయుక్తాత్మా విముక్తో మాముపైష్యసి. సమోహం సర్వభూతేషు న మే ద్వేష్యోస్తి న ప్రియః. యే భజంతి తు మాం భక్త్యా మయితే తేషు చాప్యహం. అపి చేత్ సుదురాచారో భజతే మామనన్యభావ. సాధురేవ సమంతవ్య సమ్యగ్ వ్యవస్థితో హి సః. క్షిప్రం భవతి ధర్మాత్మా శశ్వచ్ఛాంతిం నిగచ్చతి. కౌంతేయ ప్రతిజానీహి న మే భక్త ప్రణశ్యతి. మాం హి పార్థవ్యపాశ్రిత్య యేపి స్యుః పాపయోనయః. స్త్రియో వైశ్యాస్తథా శూద్రాస్ తేపి యాంతి పరాం గతిం. కిం పునర్బ్రహ్మణాః పుణ్యా భక్తారాజర్షయస్తథా. అనిత్యమసుఖం లోకమిమం ప్రాప్య భజస్వ మాం. మన్మనాభవ మద్భక్తో మద్యాజీ మాం నమస్కురు. మామేవైష్యసి యుక్త్వైవమాత్మానం మత్పరాయణః. ఓం తత్సదితి శ్రీమద్భగవద్గీతాసు ఉపనిషత్సు బ్రహ్మ విద్యాయ యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే. రాజవిద్యా రాజగూయ యోగో నామ నవమోధ్యాయః. ఓం సర్వం శ్రీ కృష్ణార్పణమస్తు.